ऋषिरुवाच इत्युक्ता सा तथा देवी गम्भीरान्तस्मिता जगौ दुर्गा भगवती भद्रा यये तं दार्यते जगत् देवी उवाच सत्यमुक्तं त्वया नात्र मिथ्या किञ्चित् त्वयोदितं त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः किं त्वत्र यत् प्रतिज्ञातं मिथ्या तत् क्रियते कथं श्रूयतामल्पबुद्धित्वात् प्रतिज्ञाया कृता पुरा यो मां जयति शङ्क्रामे यो मे तर्पं व्यबोहति यो मे प्रतिबलो लोके समे भर्ता भविष्यति तदा गच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः मां जित्वा किञ्चिरेणात्र पाणिं गृह्णातु मे लघु दूध उवाच अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाक्रतः त्रैलोक्येखभुमां स्तिष्ठे तक्रे शुम्भनिशुम्भयोः अन्येषामपि दैत्यानां सर्वे देवानवैयुतिं तिष्ठन्ति सम्मुखे देवीं किं पुनस्त्री त्वमेकिका इन्द्रात्या सकला देवास्तस्तुर्येषां न संयुके शुम्भादीनां कथं देशां स्त्री प्रयास्यसि सम्मुखं सा त्वं कच्च ममैवोक्ता पार्श्वं शुम्भनिशुम्भयोः केशाकर्षननिर्धूत गौरवामागमिष्यसि देवी उवाच एवमेदद्बली शुम्भो निशुम्भश्चादिवीर्यवान् किं करोमि प्रतिज्ञा मे यतनालोचिता पुरा सत्वं कच्चमयोक्तं ते यदेतत्सर्वमातृतः तदा सक्ष्वासुरेन्द्राय शशयुक्तं करोतु तत् ॐ ॐ जय जय श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्त्रे देवी महात्म्ये पञ्चमो अध्यायः सम्पूर्णम्।